आरम्भं कुर्मः। तेनाक्षरसमां नायम् अधिगम्याहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। मुनित्रयं नमस्कृत्य तदुक्तीश्वरिकाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते। सिद्धान्तकौमुद्यां पञ्चमी विभक्तिप्रकरणे उपपदपञ्चमी विभक्तौ स्मः। एकवारं पश्यामः, अदौ कारकपञ्चमी सर्वैः स्मर्यते इति चिन्तयामि। अपादानकारकम् अपादानकारकस्य पञ्चमी विभक्तिः भवति। अपादानकारकञ्च बहुभिः सूत्रैः पाणिनिना उक्तम्। भयमपाये अपादानम् इत्युक्त्वा ततः भीतार्थानां भयहेतुः पराजयरसोढः इत्यादिरीत्या। भाष्यकारेण तु ध्रुवोपाये अपादानम् इत्यत्रैव बुद्धिगत अपादानत्वात् सर्वत्र अपादानत्वं सिद्ध्यति, पञ्चमी विभक्तिश्च सिद्ध्यति, अतः अन्येषां सूत्राणाम् आवश्यकता नास्ति इति निर्णीतवान्। उपपदपञ्चमी विभक्तौ आदौ कानिचन वास्तिकानि अधीतानि व्यभ्योपे कर्मं निधिकरणे च। व्यबन्तस्य अप्रयोगे सति तद्दृष्ट्या यत् कर्म भवति अथवा अधिकरणं भवति तस्मात् पञ्चमी विभक्तिर्भवति। प्रासादात् प्रेक्ष्यते, प्रासादम् आरुह्य प्रेक्ष्यते इति ल्यबन्तप्रयोगः। आरुह्य इत्यस्य प्रयोगे सति कर्मपदं भवति प्रासादः, प्रासादस्य अनेन पञ्चमी विभक्तिर्भवति। एवम् आसनात् प्रेक्ष्यते, आसने उपविश्य प्रेक्ष्यते इति अधिकरणम् उपविश्य इति ल्यबन्तम् प्रति तस्य अधिकरणस्य पञ्चमी विभक्तिः। यतश्च अर्धकालनिमानं ततः पञ्चमी इति अग्रिमम्। यस्मात् अवधेः अध्वा नाम मार्गः कालो वा लीयते, अर्थात् कालपरिमाणं वा मार्गपरिमाणं वा गण्यते, तस्मात् पञ्चमी विभक्तिः भवति। वनात् ग्रामः दूरे समीपे योजनम् योजने इत्यादिरीत्या। वनाद् ग्रामः योजनम् इत्यत्र वनम् अवधिः वनम् वनादारभ्य गणना मार्गस्य परिमाणं गण्यते, तस्मात् यतः अध्वनिमानं ततः पञ्चमी इति तस्य पञ्चमी विभक्तिः। एवं कार्तिक्याः अग्रहायणी मासे इति कार्तिकी इति शब्दस्य पञ्चमी विभक्तिर्भवति। तत्रैव अध्ववाचकस्य प्रथमा वा भवितुमर्हति, सप्तमी वा भवितुमर्हति, एवं कालवाचकस्य सप्तम्येव इत्यपि दृष्टम्। अनन्तरं सूत्रम् अन्यारा वितरके दिक्शब्दान्त्युत्तरपद आजाहि युक्ते एतैः शब्दैः योगे अन्यार्थकानाम् आरात् इति शब्दस्य ऋते दिक्शब्दानां च योगे पश्चिमे विभक्तिः भवति। अनन्तरं प्रभृत्यर्थे कार्तिक्याः प्रभृति इत्यादि प्रयोगाः भाष्यकारेण कृताः, किन्तु किमपि सूत्रं वा वार्तिकं वा नास्ति। वी डु नाट् हव् पर्टिक्युलर् सूत्र वार्तिक विच् टेल्स् पञ्चमी विभक्ति देन् असोसियेटेड् वित् प्रभृति आरभ्य इत्यादि सिनोनिम्। बट् गोयिङ्ग् बै द प्रयोग आफ् द भाष्यकार वी से दट् then associated with such words prabhati arthanam yoge panchami vibhakti bhavati balyat prabhati masat arabhya ityadayah prayogah evam bahishabda yoge api panchami vibhakti atyantam prasiddha kintu vidhayakam sutram nasti there is no sutra which gives panchami when associated with bahishi tadakim kriyate asmabhihi पाणिनिना समासविधायकेषु सूत्रेषु अपपदिबहिरन्तमः पञ्चम्या इति पञ्चमी विभक्तेः क्षम्यताम् बहिःशब्दस्य पञ्चम्यन्ते रतः समासः विहितः। समासः कदा भवितुम् अर्हति? यदा बहिःशब्दयोगे पञ्चमे विभक्तिर्भवति तदैव समासोऽपि भवितुम् अर्हति. अतः तं व्यापकम् उपयुज्य बहिःशब्दयोगे पञ्चमे विभक्तिर्भवति इति अस्माभिः साधितम्. अग्रे अन्यानि सूत्राणि सन्ति पञ्चमे विभक्तौ, किञ्चित् पश्यामः. यथा मया उक्तं कर्मप्रवचनीयाः द्वितीया विभक्तौ कर्मप्रवचनीयाः अधीताः. कर्मप्रवचनीयाः इति काचन संज्ञा, तत् संज्ञा किन्तु परादि प्रापरापासम् इत्यादीनां विशिष्टेषु अर्थेषु कर्मप्रवचनीयसंज्ञा दीयते. व्यक्तिपसंज्ञा अपवादत्वेन कर्मप्रवचनीयसंज्ञा विधीयते. कर्मप्रवचनीयसंज्ञायां सत्यां विभक्तिरपि कदाचित् विशिष्टा विभक्तिः भवति. प्रायेण कर्मप्रवचनीययुक्ते द्वितीया इत्युक्तत्वात् द्वितीया विभक्तिः भवति, कदाचित् पञ्चमी विभक्तिरपि भवति. सः विषयः इदानीम् उच्यते. एनी क्वेश्चन् फ्रम् लास्ट् क्लास्? I think a very small part in last class got cut. I mean, my audio was lost and I didn't realize it till I finished up the Mangalam and finished the class. Anyway, it must have been a very, very small part because I didn't know it till I had actually finished the class. And if you have any questions from last class, you can ask. There's one question that is remaining. ऋते इत्यस्य योगे कथम् द्वितीया विभक्तिः इति. सो वेन् यूस् ऋते पञ्चमी भवेत् अन्यारादितरर्थे इत्यनेन, किन्तु द्वितीया प्रयोगः श्रूयते कथम् इति द्रष्टव्यम्. ऐ एम् नाट् एबल् टु लुक् इन् टु इट्. ऐ विल् लुक् एट् इट् इन् कार्ये. लग्नोपे क्वान्तानां किम् इत्युक्ते क्वान्तानां तादृशः प्रयोगः नास्ति इति मन्तव्यम्. अर्थात् क्वान्तस्य प्रयोगे क्वान्तसहितः प्रयोगः भवितुमर्हति. आसने स्थित्वा पश्यति इत्यादि. सो एक्चुलि आसनादीक्षते इत्यस्य आसने उपविश्यते आसने स्थित्वा वीक्षते इति वक्तुं शक्यते. वक्तुं शक्यते अध्याहार प्रयोग हेस् बीन् फार् लबन्त बिकास् दट् इस् आल्सो वार्तिककार गिव्स् बिकास् इट् इस् नाट् अ केस् वेर् देर् वास् अ लबन्त एण्ड् इट् हेस् बीन् डिलीटेड् बै अ सूत्र. सो देर् आर् केसेस् वेर् यु हेव् समथिङ्ग् विच् इस् बीन् डिलीटेड् बै अ सूत्र, देन् यु हेव् सर्टन् केस्. दिस् इस् नाट् सच् केस्. यु एक्चुअली हेव् अ प्रयोग, यु आर् ट्रैङ्ग् टु फैण्ड् द लाजिक् टु फिक्स् दट् प्रयोग. So we assume there was a Lavanta, so we treat it as the adhyahara of some Lavanta which fits the situation. There is nothing which says it has to be Upavishya. Okay? It could be something else which could fit, but we just make the adhyahara of some word which fits the context. Okay? So since it is in our hands, or the Vivaksha, so we can as well take some Lavanta. Okay? It does not mention anything about Kvanta. Basically, using Svanta, the usual way which you use a Lavanta. Like you say, Arasane Upavishya Vikshate, you can say Asane Sitra Vikshate. So it won't say, but when you are saying Asana Vikshate, the Vivaksha is where there was an Lavanta. So we take the Adhyahara of a suitable Lavanta which fits the case. अपपरि वर्जने इति सूत्रम्. पदद्वयं विद्यते, अपपरि इति वर्जने इति कर्मप्रवचनीयाः इत्यपि क्रियते. एतौ वर्जने कर्मप्रवचनीयौ स्तः. वर्जनम् इत्यर्थे अपपरि इत्येतदुपसर्गक्षम्यतां प्रादिद्वयम्. सो दीस् टु पार्टिकल् विथौट् इत्यर्थे यदा तेषां तयोः प्रयोगः तदा सर्वप्रचलीयकं न भवति। उदाहरणम् अग्रे दीयते। आङ् मर्यादावचने तत्रापि पदद्वयम् आङ् इत्यस्ति मर्यादावचने, कर्मप्रचलीयाः इति अधिक्रियते पुनः। आङ् मर्यादायाम् उक्तसंज्ञः स्यात्। आङ् आ इति उपसर्ग, आङ् नकारः इत्संज्ञः, सो आ इति उपसर्ग। I is actually used in two senses. Aam maryadabhidhyoh samara. They have two senses in which I is used. One is called maryada and the other is called abhidhi. Both of them mean till. Like you say, aabalam haribhakti or aamukti samsara. Okay. So till is the meaning of both maryada and abhidhi. But there is a small difference between maryada and abhidhi. So look at the last line. तेन विना इति मर्यादा, तेन सह इति अभिविधि। सो इट इंडिकेट्स अ लिमिट, बट मर्यादा इज एन एक्सक्लूसिव लिमिट। व्हेन यू आर सेइंग समथिंग अप टू दैट, विदाउट दैट, फॉर एग्जांपल व्हेन आई से आ मुक्ति संसार, आई मीन संसार एक्जिस्ट स्टिल मुक्ति। संसार डज नॉट इंक्लूड मुक्ति, मुक्ति इज समथिंग डिफरेंट दैन संसार। सो संसार एक्सटेंड स्टिल वेयर देयर इज मुक्ति, that is called maryada, where there is a limit, it does not include the actual limit. Tena saha iti abhividhi, whereas in abhividhi, it includes whatever is the limit you are suggesting. For example, when we say abalam hari bhakti, there should be devotion to hari till boys, I mean not boys, till children. It means including children. बालानपि अभिव्याप्य, सिमिलरली व्हेन यू से आबाल वृद्धम, इट मीन्स इंक्लूडिंग चिल्ड्रन एंड इंक्लूडिंग ओल्ड मेन। सो दैट इंक्लूसिव लिमिट इज कॉल्ड अभिविधि एंड एन एक्सक्लूसिव लिमिट इज कॉल्ड मर्यादा। द प्रारिसेस आ कैन बी यूज्ड इन बोथ ऑफ दोस सेंसेस, मर्यादा एंड अभिविधि। इदानीं सूत्रे किमुच्यते, आ मर्यादा वचने, मर्यादावचने आङ् इत्यस्य कर्मप्रचलीयसंज्ञा भवति। साक्षात् कः अर्थः गम्यते, आङ् मर्यादायाम् उक्तसंज्ञः स्यात्। ईक्षितैः उच्यते वचनग्रहणात् अभिविधावपि, इट्स् नाट् जस्ट् इन् मर्यादा, इट् इस् आल्सो इन् अभिविधि। हौ डु वि से दट् इन् सूत्र सेस् मर्यादा ओन्लि, वचनग्रहणात्, बिकास् पाणिनी यूजिंग दट वचन मर्यादा वचने। द लॉजिक इज इफ ही जस्ट वांटेड सर्वप्रचलनीय संज्ञा इन मर्यादा अर्थ एंड डिड नॉट वांट इट इन अभिविध अर्थ, ही वुड हैव सेड आंग मर्यादायाम। आंग मर्यादायाम इत्येव उक्ते किं जायते, मर्यादार्थे यः आंग भवति तस्य कर्मप्रचलनीय संज्ञा भवति। मर्यादा वचने इति किमर्थं वक्तव्यम् इति चेत्, मर्यादा वचनम यस्य, सो दट आर फॉर विच मर्यादा इट कैन बी यूज्ड इन मर्यादा, इट आल्सो इंक्लूड एंड इन द सेम आर सिंस इट इज आल्सो यूज्ड इन अभिविध अर्थ, इसे वचन ग्रहण सामर्थ्य, बिकॉज पाणिनि हैज यूज्ड दैट एक्स्ट्रा वचन, देन इफ ही जस्ट वांटेड इट इन मर्यादा अर्थ, ही कुड हैव सेड आंग मर्यादायाम, बट सिंस ही सेइंग आंग मर्यादा वचने, it includes whatever are the senses of that arm, it's maryada, he is mentioning maryada as a sample. So, both maryada and abhividhi, maryadayam abhividhausa yaha arm bhavati, tasya karma prasaniya samya bhavati anena sutrena. Idani, vibhakti vidhiyate, अपपरिवर्जने आङ् मर्यादावचने इति सूत्राभ्याम् कर्मप्रवचनीयसंज्ञा विहिता। इदानीं विभक्तिः विधीयते पञ्चम्यपाङ्करिभिः, परद्वयमस्ति पञ्चमी अप आङ्करिभिः। कर्मप्रवचनीययुक्ते द्वितीया इति सूत्रात् कर्मप्रवचनीययुक्ते इति अनुवर्तते। सो दट् सूत्र स्टडी रेग्युलेशन् दट् जनरली एन् असोसियेटेड् विन् with any karma prachaniya, there should be dvitiya vibhakti. So this sutra is an exception to that. Such as apa aang parikihi. when associated with apa, al and pari, there will be panchami vibhakti. Etaihi karma pravachaniyaihi yoge. Karma pravachaniya samya esha vasti. Tadrishaihi apa, al, pari bhikti yoge. Panchami vibhakti bhavati. Apaharehe, pariharehe, samsaraha. Apaharehe, samsaraha. अत्र अपा इति वर्जनार्थे उपयुज्यते. सो परिरत्र वर्जने एवं अपा इत्यपि वर्जने. किमर्थम्? संसारं वर्जयित्वा हरिः. हरि इज आउटसाइड संसार. हि इज बियॉन्ड संसार. इत्यर्थे वर्जनार्थे अपा परि इत्येतयोः प्रयोगः. अतः अपपरिवर्जने इति कर्मप्रवचनीयसंज्ञा पञ्चम्यपान् परिभिः इत्यनेन सञ्चली विभक्तिश्च भवति. अपहरे संसारः, परिहरेः संसारः. वर्जयति इत्युक्ते त्यजति इत्यर्थः. Now, pari is used in a lot of senses. Okay, vajjana is not the only sense of pari. So, if you remember there, previously also we have got karma pravachaniya samya for pari. For example, we had lakshanetham bhutakshana bhagavitsa tu prati pari anavaha. Lakshana itham bhutakshana bhagavitsa. So, there are four senses. In all these meanings, that pari will get karma pravachaniya samya. Now the question is, Panchamyapan Parishishi just says, when associated with Apa, Ang and Pari, there should be Panchami. So what will happen when there is Pari in other senses other than Varjana? So wherever there is Varjana, it is fine. Apa in the sense of Varjana, Pari in the sense of Varjana, you get Panchami, fine. What happens when Pari is used in some other sense? Should we have Panchami or should we have Dvitiya? He says, Lakshanadau tu harim pari. Dvitiya vibhakti reva bhavati. Why? He says, because it is associated with apa. Apa, pari. Both of them, pari is taking together in this sutra. So, wherever they have been given karma prachaniya samya together, which is vajjanartha ke yatra ubhayoho karma prachaniya samya prapta, tatra eva panchami vibhakti rapi bhavati. So, he is taking, giving the karma prachaniya samya to them together, and giving Panchami Vibhakti to them together in that particular sense. Anyesha Artheshu Yada Pari Ityasya Upayogaha Bhavati, Tada Dvitiya Vibhakti Reva Bhavati, Harim Pari Ityadina. So that is about Apa and Pari. Aam Ityasya Udaharanam Dadati, Aamuktehe Samsaraha. So, Mukti Pariyantam Samsaraha Ityasaha. So, till you attain salvation, there is something called samsara. So beyond that, there is no samsara. Asakalad brahma. Brahma sakalam abhijyapnoti ityartha. Brahma includes everything. It is an inclusive unit. So everywhere you have brahma or everything includes brahma ityartha. Asakalad brahma ityartha. Maryadayam abhivithau cha. Aang ityasya, aang maryadavachane ityanena karma prachaniya samya bhavati. Aang panchamyapang parishihi ityanena panchami vibhaktishta vidhiyate. Agrimam sutramasti प्रतिहि प्रतिनिधि प्रतिदानयोः सर्वप्रज्ञयाः इत्यधिकारः एतयोः अर्थयोः प्रतिनिधिः प्रतिदानम् इत्युभयोः अर्थयोः प्रति इति एतत् कर्मप्रचनीयसंज्ञः भवति. सो द वर्ड् प्रति व्हेन इट इज यूज्ड् इन् दीस् टु सेन्सेस् इट् मीन्स् कर्मप्रचनीयसंज्ञा. प्रतिनिधिः नाम कः इति चेत् सदृशः प्रतिनिधिः इत्युच्यते. We generally use Pratinidhi as a representative, right? Somebody who represents. Somebody who is able to represent somebody else should be equal to him, right? You cannot get a a person who does not have the same capacity or the same qualities to replace something else. So ataha pratyayahi ityate sadrishaha, something who is very similar to whatever you are looking for. It's tatya pratinidhi. It is pratidanam. Dattasya pratinidhyatanam pratidanam. So returning whatever you have taken is pratidana. Dana pratidana. Dana is to give, pratidana is to return what has been taken. Dattasya pratinidhyatanam pratidanam. Etayoho arthayoho prati ityasya. कर्म प्रचलनीय संज्ञा भवति प्रतिनिधि प्रतिदाने च यस्मात् इति विभक्ति विधायकं सूत्रम् कर्म प्रचलनीय द्वितीयाध्यतः कर्म प्रचलनीय इत्येति अनुवर्तते पञ्चम नपाल परिधि इत्यतः पञ्चमी इति अनुवर्तते सूत्री 10 नंबर सूत्री 11 अत्र कर्म प्रचलनीय योगे. So that karma pratiniya which is used in this sense, pratiniti and pratidana. So in that case we have panchami vibhakti. Pradyumnaha krishnat prati. So, having krishna se pratinidhi ityastha krishna sadrishaha ityarthe krishnat prati. So prati is used to indicate that the pratinidhartha or sadrishartha sada पंचमी विभक्ति हेतेन योगे कृष्ण कृष्ण शब्द पंचमी विभक्ति भवति प्रद्युम्नः कृष्णात् प्रति कोर्थः युद्धादौ प्रद्युम्नः कृष्ण निरूपित सादृश्यवान् तो कृष्ण सदृशः कृष्णस्य प्रतिनिधिः भवितुम् अर्हति इत्यर्थ प्रयोगः पंचमी विभक्तिः भवति. शिवेभ्यः पाशान् प्रति यच्छति. Somebody has taken sila. Sila sil. Vashan prati yachati, you have to return it. But he may return, I mean, it could be just silebhya prati yachati. If the prayoga was just silebhya prati yachati, then he took some still and he is giving back still. Silebhyaha vashan prati yachati. If you say, he has taken till, still and in exchange he gives back vasha. Okay, that was very common in those days, exchange of lucre partial. So, Tilebhyaha Mashan Prati Yachati. He returns Masha in exchange for Tila. He has taken Tila, he has to give it back, so he is giving Masha. So, in both cases, Pratidanarthe Prati Yachati. So, Tene Yage Panchami Vibhakti Bhavati. समयभाषायामपि प्रति इत्युक्ते कापि इत्यर्थे प्रति. कन्नडभाषायामपि स एव अर्थः प्रति इत्युक्ते कापि इत्यर्थः. अद्वैवमस्ति अकर्तरि ऋणे पञ्चमी. अकर्तरि ऋणे इति छेदः. सो दिस् इस् अ केस् आफ् एण्ड् सन्धि विच् इस् नाट् वेरि कामन्. अकर्तरि ऋणे वेरि डिफिकल्ट् टु प्रनौन्स् बट् वेन् कार इस् फालोड् बै अच् एनि असमर्ण स्वर यु हाव् एण्ड् सो यु हाव् अकर्तरि ऋणे. It is akartari rane. It is common in Sandhi but difficult, might be difficult to identify. Panchami. So you finish the karma prachaniya. So karma prachaniyeshu apapari varjane, antari maryada vachane, pratihi pradinithi pratidana yoho. Yadi sutra trayena yada karma prachaniya samya bhavati, tada prihi karma prachaniyehi yoge, panchami vibhaktihi bhavati. Ityarthaha. अग्रिमम् उपपदविभक्ति प्रकरणम् अनुवर्तते. अकर्तरि ऋणे पञ्चमी हेतौ इति अनुवर्तते. हेतौ तृतीया इति अधीतम् प्रयोगे हेतु हेतु कारण वि हेव् तृतीया विभक्ति अन्येन वसति he lives and the cause or the reason for his living is Allah, to get food. Ataha annena vasati. It is payogaha. Hetvartha, not hetvartha. Whenever you are using some hetu, the reason itself, tasya tritiya vibhakti bhavati iti uchyate. Atra tu kartyavarjitam yadrunam hetubhutam tatah panchami syat. Akartari rinay panchami. Hetavati anavartate. So that rina, there is a rina. Rina is known. Something that has been lent. And that rina is hetubhuta. It is the karana for something. It has been the cause. Let us say that much. For example, shatad baddhaha ityasti. Shatad baddhaha ityasti kortaha. Saha shatarupyakani rinatvena sikratavan. Kintu na prasyarpitavan. Tena kim bhavati, tasya bandhanam bhavati. He has been in prison due to 100 rupees which he had taken as loan and could not return. Atra rinam kim asti bandhanasya hetuhu. For him being in prison, rina is the hetu. So, actually, Rudam Hetu Bhutam. So, when Rudha is the Hetu, he says, Jalvi Panchami Nibhakti should be Shatad Baddhaha. If you had Hetu in the absence of this sutra, Akarkari Rade Panchami Ityasya Bhave, Kim Bhavati Shatena Baddhaha. Shatam Hetu Bhavati, Tera Kaha Baddhaha Ityanena, Shatena Baddhaha Ity Bhavati. Hintu, Yada Rudam Hetu Bhutam Bhavati, Tataha Panchami Nibhakti Bhavati, Shatad Baddhaha. नियमितकाले प्रत्यर्पणाभावे सति ऋणं नाम किं नियमितकाले प्रत्यर्पणीयम् एनी लोन् हस् टु बी गिवन् बैक् इन् अ पर्टिक्युलर् टैम् सो प्रत्यर्पण अभावे सति सो बिकास् इट् हेस् नाट् बीन् रिटर्न् सुवर्णादिशतेन ऋणेन हेतुना शतं नाम किं शतं सुवर्णं सुवर्णानां शतं 100 गोल्ड् कायिन्स् आर् समथिङ्ग् सुवर्णादिशतेन ऋणेन हेतुना बिकास् आफ् द कास्ट् The cause for his imprisonment is the rina, adhamarana baddhaha. If you remember the terms, adhamarana and uttamarana. Uttamarana is the one who gives a loan, and adhamarana is the one who takes the loan. So adhamarana baddhaha, he is being captured or imprisoned because of the rina. Tatra panchami vibhaktihi bhavati, tritiya vibhaktihi na ityarthaha. Hetu tritiya pavadaha. Hetu iti tritiya vidhiyate. तस्याः तृतीया विभक्तेः अपवादः अयम् पञ्चमी विभक्तिः भवति यदा ऋणं हेतुभूतं भवति अकर्तरि इत्यस्य कः अर्थः वेन् यु आर् नाट् यूसिङ्ग् ऋण एस् द कर्ता ऋण इस् केन् बि बोध् द कर्ता एण्ड् हेतु कथं कर्ता भवितुम् अर्हति अकर्तरि किम् So why does he say akartari? What do you mean by akartari? Kartari katham prayogaha iti say kshatrena bandhitaha. So between baddhaha and bandhitaha there is a difference. Baddhaha is he was in prison. Bandhitaha is liganta, prerarasaka. It means he was made to be in prison. Adhamaranaha uttamaranena baddhaha. The borrower has been imprisoned by the lender. No. Shatena uttamaranena adhamaranaha bandhitaha. So that shata has caused the uttamarana to imprison the adhamarana. Shata is the causal agent. It is the prayojaka karta. So if you remember nijanteshu kartrudvayam bhavati. Prayojaka karta, prayojaka karta. Shishyaha patati. Shishyaha karta. Guruhu shishyena pathayati. Or shishyam pathayati, depending on. So, what is the... This guru is the prayojaka karta. Guru is making the shishya to be. And shishya is the prayojaka karta. So, similarly here, the uttamarana imprisons adhamarana. Uttamarana karta. Shatena uttamaranena adhamarana bandhitaha. So, shata has made the uttamarana to imprison the adhamarana. In this case, shatam ityasi karta. Shatena runena prayojaka kartra. It is not prayojana, it has to be prayojaka kartra. Uttamaranena prayojya kartra bandhanam karitaha adhamaranaha. So that is the meaning of this shatena bandhitaha. Shatena bandhitaha is just a purnam vakyam nasti. शतेन उत्तमरणेन अथमरणः बन्धितः इति प्रयोगः. शत इस द प्रयोजककर्ता, उत्तमरणः इस द प्रयोज्यकर्ता, एंड अथमरण इस द कर्म. शतस्य अत्र हेतुत्वेति, शत हियर इज द रीजन, इट इज स्टिल द रीजन फॉर बंधन, बट इट इज ऑल्सो द कर्ता, इट इज प्रयोज्य प्रयोजककर्ता. कर्तृत्वात् अकर्तरि ऋणे पञ्चमी इति उक्त्वा कर्तृत्वात् पञ्चमी विभक्तिः न भवति. कर्तृतृतीया इट इज स्टिल कर्तृतृतीया, कर्तृकरणयोः तृतीया इत्यनेन तृतीया विभक्तिः भवति. సూత్రం హేతౌ ఇతిన వర్తతే. సో ఇట్ ఇస్ ఇన్ ద టాపిక్ ఆఫ్ హేతు. కర్తరి నిర్ణయ పంచమీ ఇత్యతః పంచమీ ఇత్యతి అనువర్తతే. సో ఫర్ హేతు వాచక వి గెట్ పంచమీ విభక్తి. వెన్ వెన్ ద హేతు వాచక ఇస్ అ గుణ వాచక, ఇట్ ఇండికేట్స్ అ క్వాలిటీ అండ్ ఆల్సో అ క్రియా. వెన్ ఇట్ ఇస్ నాట్ ఇన్ స్త్రీలింగ, ఫస్ట్ థింగ్ when the hetu is a gunavachaka, it indicates a quality, and the second thing, it is not in strilinga. So this time, if you remember, satyakim uktam annena vasati was the example he gave for hetu, where anna is not a guna, it is a dravya. So he gave dravya as the hetu, right? Then it is guna. When guna is the hetu, you can have either panchami vibhakti or tritiya vibhakti. విభాషా ఇత్యర్థాత్ వికల్పేన పంచమీ విభక్తిః భవతి, పంచమ్యాః అభావే తృతీయా అపి భవతి. కదా భవతి? హేతు భూతం యత్ పదం తద్ గుణవాచకం భవే అస్త్రీలింగే భవే, స్త్రీలింగ పదం న భవే. జాడ్యాద్ జాడ్యేన వా బద్ధః, హి వాజ్ ఇంప్రిజన్డ్ డ్యూ టు జాడ్య, జాడ్య ఇస్ లేజినెస్. So it led to his imprisonment. Why laziness only to imprisonment is a different question. Jadyad jadyenama baddhaha. Or you can take it as a metaphorical meaning. He was imprisoned in his situation, in his own situation, or he was imprisoned in poverty due to jadya, etc. So depending on the context you can give meaning. But the thing here is jadya is the cause for his imprisonment. హేతువాచకం అస్తి గుణవాచకం, జాడ్య ఇస్ అ క్వాలిటీ, గుణవాచకం స్త్రీలింగే నాస్తి. జాడ్యం ఇది నపుంసకలింగే పదం విద్యతే, అతః జాడ్యాద్ బద్ధః ఇత్యపి వస్తుం శక్యతే, జాడ్యేన బద్ధః ఇత్యపి శక్యతే. గుణే కిం ధనేన కులం, ధనం ఇత్యస్తి. సో దిస్ కులం ఇట్ ఎగ్జిస్ట్ డ్యూ టు ఇట్స్ వెల్త్. ధనం ఇది గుణవాచకం, ఇట్స్ ద్రవ్య. జస్ట్ లైక్ ఇట్ సెడ్ అన్నేన వసతి ఆర్ ధనేన కులం, ఇట్ ఇస్ అ ద్రవ్య, నాట్ అ గుణవాచక, అండ్ దట్ ఇస్ వై వి డు నాట్ హావ్ పంచమి. అస్త్రియాం కిం బుద్ధ్యా ముక్తః, హి వాజ్ రిలీజ్ బై హిస్ ఇంటెలిజెన్స్. బుద్ధిః ఇత్యస్తి, బుద్ధిః ఇది గుణవాచకం, ఇట్ ఈస్ క్వాలిటీ, కింటు స్త్రీలింగే అస్తి. సో సిన్స్ ఇట్ ఇస్ ఇన్ స్త్రీలింగ, వి డు నాట్ హావ్ పంచమి. తృతీయ విభక్తే ప్రయోగ బుద్ధ్యా ముక్తః. యదా హేతుభూతం గుణవాచకం భవతి స్త్రీలింగే న భవతి, తదా పంచమీ విభక్తిః వికల్పేన భవతి ఇతి అర్థః. బట్ దేర్ ఆర్ ఎక్సెప్షన్స్ టు దీస్ యాక్చువల్లీ. సో వి సీ దట్ జనరలీ ఇఫ్ ఇట్ ఇస్ అ హేతు, we have both panchami and tritiya vibhakti. This is what we see generally, especially when you study tarka. Okay, so the tarka, you have those hetu. Okay, the main premise of tarka exists in all anumana. All anumanas will have some hetu. Okay, so that hetu is generally in panchami vibhakti. Okay, whether it is a gunavachaka, whether it's strilinga, anything, it happens to be in panchami vibhakti. So that is why they say విభాష ఇది యోగ విభాగా అగుణే స్త్రియాం చ క్వచిత్. so that conditions which Panini has imposed, which is it has to be a Gunamachaka and it should not be Sri Linga, do not work everywhere. There are cases where even if it is in Sri Linga, Panchami Vibhakti is used, and even if it is not a Gunamachaka, Panchami Vibhakti is used for a Hetu. So how do we substantiate such Prayoga? See, Prashne Yoga Vibhagaha. See, it's there. Yoga Vibhaga is a technique used in Vyakarana. Yogaha Nama Sutram. Yoga here means a sutra. Yoga Vibhaga means you are splitting the sutra. What was a single sutra? You split it into two. Not you, not we do not split it. The Bhashyakara has been commenting on the sutra. He has split the sutra into two for a purpose. Okay? So now here what he does is Vibhasha iti Yoga Vibhaga. The sutra actually says Vibhasha Gune Astriyam. It's the entire sutra. We make it into two sutras. We make it as Vibhasha is one sutra and Gune Astriyam is another sutra. So the sutra Vibhasha, the first sutra Vibhasha, ityatra hetau iti anuvartate. So hetau vikalpena panchami vibhakti bhavati. Hetavachakasya, any hetavachaka will get panchami vibhakti. So the second sutra, Gune Astriyam ityatra Vibhasha ityate anuvartate, hetau iti anuvartate. So when the Hetu is a Gunavachaka and is not in Sri Linga, you get Panchami Vibhakti optionally, is what it means. So we have a Yoga Vibhaga. What is the purpose? It's the next question. I mean, if you just say Vibhasha and you say any Hetu will get Panchami and Sri optionally, why the next Sutra? We do not need Gune Astriyam is the first question. And the second thing, everywhere you have this problem that you can use both Sruti and Panchami, this is not desired. So, yatra shishta prayogaha vidyate tatra eva bhavet. Atayeva yoga vibhaga is not a real split of the sutra. Yoga vibhaga can be used only to substantiate existing shishta prayogas. And it cannot be used to create new prayogas of such things. Is what is the theory behind Yoga Vibhaga. Okay? Yoga Vibhaga is a technique which has been used in Vyakarana as something which is like, say something like Apatkala. We need something there, so we use Yoga Vibhaga. So Yoga Vibhaga can be used only to substantiate existing Shishta Prayogas. If there are already Shishta Prayogas which go against our rules, we use Yoga Vibhaga and say, because of these, some of these Prayogas can be substantiated. But you cannot use the same Yoga Vibhaga and say, okay, there is this Sutra Vibhasha. So everywhere, I will use that Sutra and use both Panchami. For example, you cannot say Dhanad Kulam or Annas Vasati. Because such Prayogas are not seen. Shishta Prayogas are not seen. So, where there is Shishta Prayoga of Panchami Vibhakti being used, in a case where it is a Hetu, but it is either not a Gunavachaka or is in Sri Linga, in that case we say Vibhasha iti Yoga Vibhaga Agune Sriyamsa Kvachita. Kvachita is used in some places, very few places where there has already been Shishta Prayoga. Example, Dhumad Agniman. This is the standard or the first example you study in Tarka is Parvato Valhiman Dhumat. Parvataha Sanyiman Dhumat iti Hetuhu. So the Hetu, how you say that Parvata has fire, how do you say Dhumat? So the cause for your Anumana is that it has smoke. Okay? So Dhuma is not Guna. Gunavachakam Nasti. Dhuma. Gunavachakam Nasti ityataha Vibhasha Gune Astriyam ityanena Panchami Vibhakti na praknoti. You cannot have Panchami there. Actually, you cannot have. Hetau ityaneva Sutiya Vibhaktireva Bhavet. But, the Prayoga is there. Everywhere, wherever you take Tarka, you have the Prayoga. It has been used. So, katham tasya samarthanam kriyate ityukte, Vibhasha iti Yoga Vibhagas kriyate, tena sutrena Hetoho Panchami Vibhakti Bhavati Vikalpena iti Kvachid Bhavati. So this is also from Tarka. there is no ghata because it is not available. Arupalabdhi. So, unavailability. Ityasaha. Arupalabdhi iti gunam, gunavachakam padam. Into Srilinge vidyate. Anupalabdhi is a Srilinga word. So, vibhasha gune astriyam. Since it says astriyam, you cannot have satyami vibhakti here. By yoga vibhaga, we substantiate satyami vibhakti. So, vibhasha iti yoga vibhaga ata agune sriyam cha svachita. Duma dagiman nasti ghato anupalabdhe hai. But the standard rule is, you have both Srutiya and Panchali. If it is a gunamachaka and not in Srilinga. Otherwise, you have only Srutiya. Exceptional cases is where there is some prayoga. The next one. This is very popular, as in the prayogas are very common. Prithagvina nanabhihi Srutiyanya tarasyam. Prayamasti. Prithagvina nanabhihi. एतैः पदैः योगे तृतीया विभक्तिः भवति अन्यतरस्यां विकल्पेन विकल्पेन तृतीया देयर आर टू अदर विभक्तीज विच आर बीइंग टेकन फ्रॉम अनुवृत्ति अपादाने पञ्चमी इत्यतः पञ्चमी इति अनुवर्तते एनपा द्वितीया इत्यतः द्वितीया इत्यपि अनुवर्तते सो इट मीन्स वी हैव थ्री विभक्तीज थ्री पॉसिबल विभक्तीज इन असोसिएशन विद दी एभिः योगे तृतीया स्यात् पञ्चमी द्वितीये च So, you can have Tritiya Vibhakti, Panchami Vibhakti or Jitiya Vibhakti. Anyatarasyam Grahanam Samuchayartham, Panchami Jitiya Cha Anuvartyate. So, Anyatarasyam is not, generally Anyatarasyam is used as to indicate option, optionally Tritiya. In Sartra Tatha Nasti, if you just say an option, you will not know what happens when this option does not take. Okay, you get Tritiya optionally. What happens when you don't have Tritiya? In that case, you have anuvratti of panchami and dvitiya. So, the anyatarasya is meant to bring in and for the conjunction of both panchami and dvitiya. This is, it can be tritiya or panchami or dvitiya. Prithag rameda rama dramamba. Rameda prithag. Other than rama, separate from rama. Ramat prithag, ramam prithag. So, vina. Jalena vina, jalat vina, jalam vina. So all three vibhaktis are allowed with vina. Nana is also the same case. It means vina. Hirum nana chavarjane ityamaraha. So nana is not a very common word, but it is used in the same sense as vina. Saeva arthaha, vibhakti rapi sathaiva. Panchami, tritiya, athava, dvitiya. Istraha api vibhaktayaha bhavitum arhanti. करणे च श्लोकाल्प कृच्छ कतिपयस्य असत्त्ववचनस्य चत्वारि गणानि सन्ति करणे च श्लोकाल्प कृच्छ कतिपयस्य फॉर दीस फोर असत्त्ववचनस्य अपादाने पञ्चमी इति सूत्रात् पञ्चमी इति अनुवर्तते पृथग् विना नानाभिः इत्यतः अन्यतरस्याम् इति अनुवर्तते एभ्यः अद्रव्यवचनेभ्यः करणे तृतीया पञ्चम्यौ स्तः इन् दिस् केस् यु हव् ओन्ली तृतीया एण्ड् पञ्चमी ओके इवन् दो इट् इस् अन्यतरस्याम् यु हव् अनुवर्ति देर् इस् नो द्वितीया बिकास् आफ् व्याख्यान हौ डु वि प्रिवेण्ट् द्वितीया इस् व्याख्यान अकार्डिङ्ग् टु भाष्यकार सेस् देर् इस् ओन्ली तृतीया एण्ड् पञ्चमी Yoga is also seen only for Tritiya and Panchami. Okay, so there is Tritiya Vibhakti and Panchami Vibhakti. When you use these four words, Soka Alpa Kritsha Katipaya, Etesham Chaturnam Prayoge, Etesham Chaturnam Panchami Vibhakti Bhavati, Tritiya Vibhakti Rava Bhavati. So Tritiya Vibhakti Bhavataha. Kada Karane, when they are the Karana. साधकतमम् निर्णयार् करणवाचक करणवाचकस्य भवति अद्रव्यवचनेभ्यः एण्ड् आल्सो दे डु नाट् इण्डिकेट् अ द्रव्य आल्रेडि सीन् द सत्त्व सादयो सत्त्वे देन् सादीस् एन् असत्त्व सत्त्वं नाम द्रव्यम् सो वे देन् दे डु नाट् इण्डिकेट् अ द्रव्य वेन् दे आर् द करण देन् दे डु नाट् इण्डिकेट् अ द्रव्य they will have Tritiya Vibhakti and Panchami Vibhakti. Kim Udaharanam? Sokena Sokadva Muktaha. Soka means very little. Soka and Alpa means very little. Sokena Muktaha. Athava Sokad Muktaha. Kothaha Laghuna Ayasena Muktaha. He was released easily. Ityartha. Sokena Muktaha, Sokad Muktaha Chesya. He was released without much effort. With very little effort, he was released. Laghuna Ayasena. Now, this Soka is the Karana. Okay, it is the instrument for his release. And it is Asatya Vachana. Because Ayasa or Shrama, that effort is not a Dravya. A Dravya Vachana, it is Karana and Soka Shabda. So you have Tritiya Vibhakti and Panchami Vibhakti. Dravya eto, Soka ena Nishena Hataha. He was killed with a little poison. You see, it's here. So Soka here is the Karana. But it is Dravya Vachaka, it is not Adravya Vachana, because it is being a Visheshana to Visha, Visha which is a Dravya. So in this case there is no Panchani. Satrakaranayo Sritiya Achanena, Sritiya Vibhaktirena Bhavati, Panchani na Bhavati. Yadatu Adravya Vachanam Bhavati, Tada Sritiya Athava Panchani, Lokan Muktaha, iti Bhavati. Similarly, you have Alpena Alpadva Muktaha. Again, it means very easily. Krishna Krishadva Muktaha. Krishna is with difficulty. He was released with great difficulty or with lot of effort. Satipayena Satipayadva Muktaha. Satipaya again indicates very little of something. Sayetesham Sayeva Astaha. Okay. Laghoha Ayasat is not correct. When you have Laghu or Ayasat, there is no nothing which gives you Panchami Vibhakti. It has to be Karana, it is Laghuna Ayasena Muktaha. Okay. It's only for these four words. Soka, Alpa, Krishna and Satipaya. That is where there Laghuna Ayasena Muktaha is Sritiyayana Bhavati, Panchami na Bhavati. Soka padam asti chet athava alpa krutya katipaya eteshameva padanam panchami vibhakti. So enapa dvitiya is a sutra which you see next. Shashti vibhakti prakarane enapa dvitiya is a sutra bhavati. Shashti adhyayanam. So panchami vibhakti prakarane antimam sutram bhavati duranti karthebhyo dvitiya asa. Three padani santi, duranti karthebhyah dvitiya cha. Ebhyah dvitiya syat, chat panchami tritiya cha. So we are getting panchami and tritiya in the same series. The previous sutra said panchami and tritiya. So this says dvitiya cha and also dvitiya. So again you have three vibhaktis, dvitiya, tritiya and panchami. Duranti karthebhyah, duram antikam, duram means far, antikam means near. So words which indicate far away, duram, and that which indicate antikam. For such words, you have these three vibhaktis, pratipadikartha matre vijirayam. In that pratipadikartha means far away, ityeva arthe, dvitiya vibhakti bhavati, panchami vibhakti bhavati, tritiya vibhakti bhavati. Gramasya duram, durad, durelava. Gramasya durat chesekotaha, far away from the grama itseva arthaha. The panchami does not carry the meaning of apadana or from there. Gramasya dureda also just means far away from the village. It does not have the meaning of tritiya, not along with or with. Sa kopi arthanam bhavati, pratipadikartha matre, dvitiya, tritiya, panchami, vibhaktihi, anya vibhaktihi bhavati. Gramasya duram. Evam, gramasya antikam, antikar, antikelava. Asatva vachanasya ityanudatehe nainha. The previous sutra we have, karaneta sokalpa krishna katipayasya, asatva vachanasya. So, in this sutra also, there is anuvritti of asatva vachana. So, durantikarthebhyaha, atastavachalebhyah. So when they do not indicate a particular dravya, when you just say ravasya duram, far away, itteva arthah. What is far away? Dravyam na nirdishtam. Ataha tatra duram dura durena iti vibhakti trayam bhavati. Yadatu dravyavachanam bhavati, tattvavachanam bhavati, dura panthaha. The path or the road is far away. Ityarthe yada pathin shabdasya visheshanatvena dura shabdaha upayujyate. So when you are using it as a qualifier for a dravya, tadatu pratipadikartha matre prathama eva dura panthaha. So asattvavachane eva jitiya tritiya sanchani. Similarly, you can have ramasya samipam, samipat, samipena, ityadi. Nuranti karthebhya. So it need not be just these words. Any word which is used in the same meaning can have these three vibhaktis. Okay. So that is the end of panchami vibhakti prakarana. We have done both karaka panchami and upapada panchami. Any question? No. It is not the grama which is there. It is the pantha is grama is also sattva-vachana, but it is not. Say gramasya durah panthaha is the full prayoga here also. The path is far away from the grama. What is dura referring to? Ramasya duram just means it is far away. It's it does not refer to a particular thing. It is referring to the quality of being far away. What is far away is not being mentioned. That is asattva vachana. So when you say there is some particular thing, particular matter which is far away, Ramasya duram panthaha iti yada uchyate, tada duraha, it refers to a particular object which is panthaha. That is sattva-vachana. It is not about grama or pantha. Grama is also sattva-vachana and pantha is also. Here you are not saying gramaha duram. If you should say gramaha duraha, you are saying the village is far away. Tada gramaha duraha itseva bhavati. Yatha durah panthaha, tatha ito gramaha duraha itseva bhavati. Gramasya from the village or gramas, kim dure asti iti prashnaha. If you are referring it to a particular thing, tada duraha iti athava duram iti va kim prathama vibhakti reva bhavati. Yada tat kim, what is it that is far away iti na nirdishyate. Sattva vacharam nasi kim chit dravyam vishishya na nirdishyate. Kevalam, it is only the what do you say, the quality of being far away, nearness or farness which is being indicated. Tada vibhakti trayam bhavati. Example of asattva is this, ramasya duram, far away. So in this case, and in many cases, asattva is that which is not dravya, that which is not matter. So we saw previous case. So kena laguna ayasena muktaha. Yeah, here asattva vachana is ramasya duram. It means far away from the grama. That is the example of asattva vachana. Where it does not, the dura does not refer to any particular matter. You are not saying something is far away, you are not mentioning that something. Far away. Why is it not complete? That is the vivaksha. Grama is 5 miles away from what the question say. Vanad Gramaha Yojanam Yojana Dure Vartate. You already saw that. 5 miles away, when you are saying 5 miles, you are saying that Marganimana. It gets Yadasya Adhakala Nimanam and Sajitta Adhanaha Prathama Saptamyo. So you can have Prathama or Saptami. Okay. So exactly, doesn't say what is far away, but the vivaksha is not to indicate what is far away. It just says far away. Tavadeva, Gramasya Duram, far away from the village. Itseva Arthaha Vivakshitaha. सत्वासत्ववचनं नोक्तम् अतः असत्त्वम् इति मन्तुं न शक्यते प्रश्नः. See, that is what I'm saying. It is not that it is incomplete. The sentence is not correct. It is not that there is something it has to be mentioned saying what is far away and it has not been mentioned. That is not the case. The case here is, Gramasya Duram is complete. Okay, it is complete by itself. Whereas the Vivaksha, he does not, the speaker does not mean to indicate what is far away. He does not mean to say the path is far away and he is cutting his word short and saying Gramasya Duram. That is not the case. You say Gramasya Duram Panthaha, saying that particular thing or whatever, Duram Vanam or whatever you are saying is complete. The Vivaksha here is not that. The Vivaksha is just to say, indicate the farness or nearness in relation to Grama, and it is not to indicate that whatever, to specify any object which is far away or nearby. So the Vivaksha is to indicate farness, the quality of being far away, and not to indicate a specific object which is far away or nearby. Okay. Right. So, say, Devalaya Kutra Asti. Ramasya Durat. Ramasya Duraha Devalayaha. So, if you are mentioning, when you try to indicate that it is Devalayaha, so tada, it has to be Prathama. So, when you are just indicating that it is at something is far away, Durat, it is Bhavitum Arhati. So that is what I feel, but maybe this requires more thought. Think about it. If you still are not convinced, maybe we can discuss this again. Any other questions? Okay, stop here. Shvaha Yashti Vibhakti Hi Arapshyate. Enasara Kamam Nayam Adhi Ramna Maheshwara Tasmin Vyakaranam Jokkan Dasmai Pāninaye Namaha Vakyakaram Mara Rikim Bhashwakaram Patanjalim Pāninim Sutrakaram Tasrana Dosvim Nitrayam Vinitrayam Namaskrutya Dada Sishvari Khaadjata Vijayatrana Siddhanta Kaumari Yambhidatyate.